క్షేత్రియాత్తానిర్నిత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాయ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః శంతే అగ్నిః సహాద్భిరస్తు శంసోమః సహౌషధీభిః ఏవాహం త్వాం క్షేత్రినాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః శంతే వాతో అంతరిక్షే వయో ధాచ్ఛంతే భవంతు ప్రదిశశ్చతస్రః ఏవాహం త్వాం క్షేత్రినాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః ఇమాజా దేవీ ప్రతిశశ్చతస్రో వాతపత్నీరభిసోరుజో విచష్టే ఏవాహం త్వాం క్షేత్రినాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః తాసు త్వాంతర్జరస్యాదధామి ప్రజక్ష్మాదే దురనేతిః పరాచైః ఏవాహం త్వాం క్షేత్రినాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః అముక్థాయక్ష్మాద్దురితాదవద్యాద్రుహః పాశాద్గ్రాహ్యాశ్చోదముక్థాః ఏవాహం త్వాం క్షేత్రినాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః అహ అరాతి వేదస్యోరమప్యభూర్భద్రే సుకృతస్య లోకే ఏవాహం త్వాం క్షేత్రినాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః సూర్యమృతం తమసోగ్రాహ్యా అధిదేవా ముంచంతో అసృజన్నిరేణదః ఏవాహం త్వాం క్షేత్రియాన్నిరత్యాజామి సంసాద్రుహో ముంచామి వరుణస్య పాశాత్ అనాగతం బ్రహ్మణా త్వా కృణోమి శివేతే ద్యావాః పృథివీ ఉభేస్తాః దోష్యా దోషీరతిహేత్యాహేతిరతిమేన్యామే నిరసి ఆత్మృశ్రేయాం సమతి సమంగ్రావా సత్యోసి ప్రతిసరోసి ప్రత్యభిచరణోసి ఆత్మృశ్రేయాం సమతి సమంగ్రావా ప్రజితమభిచరయోస్మాం వేష్టియం వయం ధిష్మః ఆత్మహిస్తేరాం సమతి సమంగ్రామ సూరిరాశివర్చోధాశిదనోపానోసి ఆత్మహిస్తేరాం సమతి సమంగ్రామ శుక్రోసి భ్రాజోసి స్మరసి జ్యోతిరసి ఆత్మహిస్తేరాం సమతి సమంగ్రామ ద్యావాః పృథివీ ఉర్వాంతరిక్షం క్షేత్రస్య పత్న్యోరుగాయోద్భూతః ఉతాంతరిక్ష ఉర్వాత గోపం దర్యహప్యంతాం మరీతప్యమాలే ఇదం దేవాశృణుతయే యజ్ఞినాస్త భరద్వాజో వహ్య ముక్తాని శంసతి పాశేత బంధో దూరితే నియుజ్యతాం యో అస్మాకం మన ఇదం హినస్తి ఇదమింద్రశృణుహితోపభయత్వాహృతాచోహీని వృష్టామితం కులీశేనే వృక్షం యో అస్మాకం మన ఇదం హినస్తి అశీతిభిస్తిభిస్తామయేభిరాదిత్యేభిర్వసుభిరంగీరోభిః ఇష్టాపూర్తమవతురః పితృణామాముందేహరసాదైవ్యేన ద్యావాః పృథివీ అనుమాదీ ధీథాం విశ్వే దేవాసో ననुमारभध्वम् अङ्गेरसः पितरः सोम्यासः पापमार्च्छत्वमकामस्य कर्ता अतीमयो मरुतो मन्यवैनो ब्रह्म वायोनिन्दिषक्रियमाणम् तपोंशिरस्मै व्रजिलानि सन्तु ब्रह्मद्विषम् जौरभिसन्तवादि सप्त प्राणा नष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा अयायमस्य सादनमग्निदूतो अलम् कृतः आदधामिते पदम् समिद्धे जातवेदसि अग्निशरीरम् मे वेश्वसंवागपि गच्छतु आयुर्दाग्ने जलसं मृणानो घृतप्रतीको घृतपृष्ठोऽग्ने घृतम् पीत्वा मधुरारुगव्यम् पितेव पुत्रानभिरक्षताधिमम् परीधत्त धत्त नो वज्रसेमम् जलावृत्तिम् कृणुत दीर्घमायुः बृहस्पतिः प्रायच्छद्वासादेतत् सोमाजयराज्ञे परीधातमाहु परीदम् वासोः अधिता स्वस्तरे भोर्गृष्टीणामभिजक्ति बाहु शतम् च जीव शरदः पुरुदीनालश्च मोषमुपसंयस्व एष्यस्मानवातिष्ठाश्मा भवतु ते धनोः कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् यस्य ते वासप्रथमवास्याम्हराः वस्तन्त्वा विश्वे वन्तु देवाः तन्त्वा भ्रातरस्तु वृथा वर्धमानमनुजायन्ताम् बहवस्तु जातम् निःसालाम् धृष्णुम् धृणमेकवाद्याम् जिघत्स्वम् सर्वाश्चण्डस्य भक्त्यो नाशनामस्तदाङ्गाः निर्वो गोष्ठादजामसि निरक्षान् निरूपानशात् निर्वो मगुञ्जातुहितरो गृहेभ्यश्चातयामहे असौ यो अधराद्दृढस्तत्र सन्त्वराय्याः तत्र सेतिर्न्युच्छतु सर्वाश्च जातु धान्याः भूतपतिर्निरजन्तिन्द्रश्चेतस्तधान्वाः गृहस्य बुद्ध आसीरास्तायन्द्रो वज्रेणाधितिष्ठतु यदि स्थक्षेत्रिजाणाम् यदि वा पुरुषेषिताः यदि स्थलस्तुभ्यो जातारश्च चेतस्तदान्वाः परिधामान्यासामाशुर्भाष्टाः विवासरन् अदीशम् सर्वाः नाजीम् मोहश्च चेतस्तदान्वाः यदाद्यौश्च पृथिवीतेन बीभीतो नरिष्यतः एवा मे प्राणवालीभेः यथाहश्च राज्ञीच न बीभीतो नरिष्यतः एवा मे प्राणवालीभेः यथा सूर्यश्च चन्द्रश्च न बीभीतो नरिष्यतः एवा मे प्राणवालीभेः यथा ब्रह्म च क्षत्रम् च न बीभीतो नरिष्यतः एवा मे प्राणवालीभेः यथा सत्यम् चानृतम् च न बीभीतो नरिष्यतः एवा मे प्राणवालीभेः यथा भूतम् च भव्यम् च न बीभीतो नरिष्यतः एवा मे प्राणवालीभेः प्राणाः बाणो मृत्योर्मापातम् स्वाहा द्यावाः पृथिवी उपश्रुत्यामापातम् स्वाहा सूर्यचक्षोषामापाहि स्वाहा अग्ने वैश्वानरविश्वैर्मा देवेष्वाहि स्वाहा विश्वम् भरविश्वेन माभरसामाहि स्वाहा ओजोऽस्योजो मेधा स्वाहा सहोऽसि सहो मेधा स्वाहा बलमसि बलम् मेधा स्वाहा आयुरस्यायुर्म् मेधा स्वाहा श्रोत्रमसि श्रोत्रम् मेधा स्वाहा चक्षुरसि चक्षुर्मेधा स्वाहा परिपाणमसि परिपाणम् मेधा स्वाहा भ्रातृव्यक्षणमसि भ्रातृव्यचातनम् मेधा स्वाहा ಪದಕ್ಷರಣಮದಿಲವತ್ರಚಾತನಂ ಮೇಧಾ ಸ್ವಾಹ ಅರಾಜಕ್ಷರಣಮಸ್ಯ ರಾಜಚಾತನಂ ಮೇಧಾ ಸ್ವಾಹ ಪಿಶಾಚಕ್ಷರಣಮಸಿ ಪಿಶಾಚಾತನಂ ಮೇಧಾ ಸ್ವಾಹ ಸದಾಂಬಾಕ್ಷರಣಮಸಿಂ ವಾಚಾತನಂ ಮೇಧಾ ಸ್ವಾಹ ಅಗ್ನೇಯತ್ತೇ ತಪಸ್ತೇನೇತಂ ಪ್ರತಿ ತಪಜೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಅಗ್ನೇಯತ್ತೇ ಹರಸ್ತೇನೇತಂ ಪ್ರತಿ ಹರಜೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಅಗ್ನೇಯತ್ತೇ ಅರ್ಚಿಸ್ತೇನೇತಂ ಪ್ರತ್ಯರ್ಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಅಗ್ನೇಯತ್ತೇ ಶೋಚಸ್ತೇನ ತಂ ಪ್ರತಿ ಶೋಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಅಗ್ನೇಯತ್ತೇ ತೇಜಸ್ತೇನ ತಮ ತೇಜಸಂ ಕೃಣೋಜೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ವಾಯೋಯತ್ತೇ ತಪಸ್ತೇನ ತಂ ಪ್ರತಿ ತಪಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ವಾಯೋಯತ್ತೇ ಹರಸ್ತೇನ ತಂ ಪ್ರತಿ ಹರಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ವಾಯೋಯತ್ತೇ ಅರ್ಚಿಸ್ತೇನ ತಂ ಪ್ರತ್ಯರ್ಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ವಾಯೋಯತ್ತೇ ಶೋಚಸ್ತೇನ ತಂ ಪ್ರತಿ ಶೋಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ವಾಯೋಯತ್ತೇ ತೇಜಸ್ತೇನ ತಮ ತೇಜಸಂ ಕೃಣೋಜೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಸೂರ್ಯಯತ್ತೇ ತಪಸ್ತೇನ ತಂ ಪ್ರತಿ ತಪಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಸೂರ್ಯಯತ್ತೇ ಹರಸ್ತೇನ ತಂ ಪ್ರತಿ ಹರಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಸೂರ್ಯಯತ್ತೇತ್ಯಸ್ತೇನ ತಂ ಪ್ರತ್ಯರ್ಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಸೂರ್ಯಯತ್ತೇ ಶೋಚಸ್ತೇನ ತಂ ಪ್ರತಿ ಶೋಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಸೂರ್ಯಯತ್ತೇ ತೇಜಸ್ತೇನ ತಮ ತೇಜಸಂ ಕೃಣೋಜೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಚಂದ್ರಯತ್ತೇ ತಪಸ್ತೇನ ತಂ ಪ್ರತಿ ತಪಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಚಂದ್ರಯತ್ತೇ ಹರಸ್ತೇನ ತಂ ಪ್ರತಿ ಹರಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಚಂದ್ರಯತ್ತೇತ್ಯಸ್ತೇನ ತಂ ಪ್ರತ್ಯರ್ಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಚಂದ್ರಯತ್ತೇ ಶೋಚಸ್ತೇನ ತಂ ಪ್ರತಿ ಶೋಚಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಶ್ವಃ ಚಂದ್ರಯತ್ತೇ ತೇಜಸ್ತೇನ ತಮ ತೇಜಸಂ ಕೃಣೋಜೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಷ್ಮಃ ಆಹೋಯದ್ವಸ್ತಪಸ್ತೇನ ತಂ ಪ್ರತಿ ತಪರಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಷ್ಮಃ ಆಹೋಯದ್ವೋಹರಸ್ತೇನ ತಂ ಪ್ರತಿ ಹರತಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಷ್ಮಃ ಆಹೋಯದ್ವೋರ್ಚಿಸ್ತೇನ ತಂ ಪ್ರತ್ಯರ್ಚತಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಷ್ಮಃ ಆಹೋಯದ್ವಶ್ರೋಚಸ್ತೇನ ತಂ ಪ್ರತಿ ಶೋಚತಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಷ್ಮಃ ಆಹೋಯದ್ವಸ್ತೇಜಸ್ತೇನ ತಮ ತೇಜಸಂ ಕೃಣುತಯೋ ಸ್ಮಾಂಗೇಷ್ಟಿಜಂ ವಯಂ ವಿಷ್ಮಃ ಶೇರಭಗಶೇರಭಯಪುನರ್ವೋಜಂತು ಜಾತಃ ಪುನರ್ಹೇತಿಃ ಯಸ್ತ್ರಮತ್ರಮತ್ರ ಸ್ವಾಭಾಂಸಾನ್ಯತ್ವ ಶೇವೃಭಗಶೇವೃಧಯಪುನರ್ವೋಜಂತು ಜಾತಃ ಪುನರ್ಹೇತಿಃ ಕೇಮೀರಿನಃ ಯಸ್ತ್ರಮತ್ರಮತ್ರ ಸ್ವಾಭಾಂಸಾನ್ಯತ್ವ ಬ್ರೋಕಾನು ಬ್ರೋಕ ಪುನರ್ವೋಜಂತು ಜಾತಃ ಪುನರ್ಹೇತಿಃ ಕೇಮೀರಿನಃ ಯಸ್ತ್ರಮತ್ರಮತ್ರ ಸ್ವಾಭಾಂಸಾನ್ಯತ್ವ ಸರ್ಪಾನು ಸರ್ಪೇ ಪುನರ್ವೋಜಂತು ಜಾತಃ ಪುನರ್ಹೇತಿಃ ಕೇಮೀರಿನಃ ಯಸ್ತ್ರಮತ್ರಮತ್ರ ಸ್ವಾಭಾಂಸಾನ್ಯತ್ವ जोर्णे पुनर्वोजन्तु जातवः पुनर्हेतिः किमीदिनीः यस्य स्थतमत्रयोपप्राहेत्तमत्त स्वामांसान्यत्ता उपब्धे पुनर्वोजन्तु जातवः पुनर्हेतिः किमीदिनीः यस्य स्थतमत्रयोपप्राहेत्तमत्त स्वामांसान्यत्ता अर्जुने पुनर्वोजन्तु जातवः पुनर्हेतिः किमीदिनीः यस्य स्थतमत्तरोऽप्राहेत्तमत्र स्वामांसान्यत्ता भरूजि पुनर्वोजन्तु जातवः पुनर्हेतिः किमीदिनीः यस्य स्थतमत्तरोऽप्राहेत्तमत्र स्वामांसान्यत्ता शन्नो देवी वृष्णिपर्ण्यशन्निरनित्यागः उग्राहिणम्भनेतामा भक्षे सहस्वते सह मानेयम् प्रथावृष्टिपर्ण्याजायत तयाहम् दुर्णाम्नाम् शिरो वृष्टामि शकुनेरिव अरायमशक्पावानम् यश्च स्वातिम् जिहीर्षति गर्भादम् कण्वन्नाशय वृष्णिपर्णे सहस्वद गिरिमेनाम् आवेशय कण्वाम् जीवितयोनान् ताम् स्तम् देवि वृष्णिपर्ण्यग्निरेवानुदहन् हि पराजनेनान् प्रणोद कण्वाहम् जीवितजोपानान् तमाहम् तिलत्र गच्छन् तिलत्रव्यादो अजीगलम् एहयन्तु पशवो जयपरेजुर्वाजुर्येषाम् सह चारम् जुजोष त्वष्टालेषाम् रूपभेदानिवेदास्मिन् ताम् गोष्ठे स वितानि यच्छतु इमम् गोष्ठम् पशवः संस्रवन्तु बृहस्पतिरानानत प्रजानन् श्रीवायेन रक्त्वाग्रमेषामाजग्मुषो अनुमते निगच्छ संस्रवन्तु पशवः समश्वास्तमपूरुषाः सन्धान्यश्च जास्पातिः संसाव्येन विडाः जुहोमि संसिञ्चामि गवाम् क्षीरम् समाज्येन वरम् रसम् संसिक्ता अस्माकम् वीरा ध्रुवागामयि गोपतौ आहरामि गवाम् क्षीरमाहारम् धान्याम्रसम् आहृता अस्माकम् वीरा आपत्नीरमस्तकम् नेच्छत्रुप्रासम् जजाति सह मानाभिभोरथि प्रासम् प्रतिप्रासोदैत्यरसान् कण्वोषधे सुवर्णस्त्वान्वविन्दस्वोकरस्वाहासरन्नसा प्रासम् प्रतिप्रासोदैत्यरसान् कण्वोषधे इन्द्रोऽभचक्रे त्वा बाहावसूरेभ्यस्तरी तव प्रासम् प्रतिप्रासोदैत्यरसान् कण्वोषधे पाताविन्द्रो व्यात्नादसूरेभ्यस्तरीतरे प्रासम् प्रतिप्रासोदैत्यरसान् कण्वोषधे तयाहम् शत्रोऽन्तराक्षिन्द्रस्तारावृकाङ्गेव प्रासम् प्रतिप्रासोदैत्यरसान् कण्वोषधे रुद्रजलारभेदीलकर्मकृत प्रासम् प्रतिप्रासोदैत्यरसान् कण्वोषधे तस्य प्रासम् पञ्चहियोनिन्द्राभिदासति अधीनाम् ब्रूहिशक्तिभिः प्रासिमामुत्तरम् कृधि त्वभ्यमेव जरिमन्वद्धतामयम् एव मन्ये भृत्यवोऽहम् दुष्टतये मातेव पुत्रम् प्रमाणा उपस्ते मित्रयेनम् मित्रियात्वा संहतः मित्रयेनम् वरुणो वा ऋषादाः जरामृत्युम् कृणुताम् संविधानौ तदग्निर्होताः वयुनाः निविद्वान् विश्वादेवानाम् जनेमा विभक्ति त्वमीषे पशूनाम् वार्थीवानाम् ये दाता उत भाजे जनित्राः मेमम् प्राणोहा सेन्मोह पानो मेमम् मित्रावधि धर्म अमित्राः द्यावस्ताः पिता पृथिवी माता जदा मृत्युम् कृणुताम् संविधाने यथाजीवाजीते रूपस्थे प्राणाभाराभ्याम् वमितः शतम् हिमाः
ఇమవద్గాయుషేవచ్చేనయ ప్రియం వేదో వరుణమిత్రరాజన్ మాదేవాస్మాదితే శర్మ గచ్చ విశ్వే దేవా జలదశ్చర్యసాసత్ పార్థివశ్చరసే దేవా భగశ్చ తంవోమలే ఆయుష్యమస్మా అగ్నిస్నోర్యో వచ్చయాభా బృహస్పతి ఆయురస్మై దేహి జాతమేద ప్రజాంతశ్చరభిరేహ్యస్మై రాజస్వోషం సవితరాసూవాస్మి శరంజీవాది శరదస్తవాయం ఆశీర్ణయోర్జముదసౌ ప్రజాస్తం దక్షం భత్రం ద్రవీణం భజేదసౌ జయం క్షేత్రాణి సహసామిందం బాణో అన్యాధరాన్ సపత్నాని ఇంద్రేణ దత్తో వరుణేన శిష్టో వరుద్ధిరుగ్ర ప్రహీతో నాగన్ ఏకవాహం జాపృథివీ ఉపస్థేమాక్షోధం ఊర్జమస్మా ఊర్జస్వతీ ధత్తం పయో అస్మై పయస్వతీ ధత్తం ఊర్జమస్మై పృథివీ ఆధాతాం విశ్వే దేవా మరుత ఊర్జమావాహ శివాభిష్టే హృదయం దర్పయామ్యన వివోమోనిష్టా సువర్గా సవాసినో విమలాం మంధమేతమశ్వినో రూపం పారిథాయ మాజా ఇంద్రేతాం సదజ విద్ధో అగ్రవోర్జాం పదామజరాం సాత ఏదాం ప్రజాత్మం జీవ శరద సువర్గామాధాదుస్రోద్భిడయస్తేరక్రం యథేదం భూమ్యాధిగణం వాతో మధాయతి ఏవామత్నామి దేవదోజసామాన్ కామిన్యసోజసామన్నాపగాసాః సంచేంద్రియాథో అశ్వినా కామినా సంచయవరాః సంవాం భగాథో అగ్మద సంచిత్తాని సమవ్రతాం యత్సువర్ణాని వక్షవో అనమీవాది వక్షవాః తత్ర మే గచ్చతాద్ధవం శల్యైకవర్మారయ్యథాః ఇదంతరం తత్వాజ్యం తదంతరం కన్యానాం విశ్వరూపాణాం మనోగృభాయౌషధే ఏయమ గణపతి కా వాజని కా మోహమాగమం అశ్వక్కనిక్రదర్యథా భగే నాహం సహాగమం ఇంద్రస్య యామహీర్విశ్వస్య దర్శని ృమేందృషాఖల్వామివ దృష్టమృష్టమృషమసో గురూరుమృషం అల్గండోన్సర్వాన్ శనుమేన్మజసాజం భజామసి అల్గండోన్ హి మహతామేన దూనాదూనారథాభువన్ శిష్టానశిష్టాన్వితరామి వాచాక్రిమీణాక్షిదాదై అన్వాంద్రం శిరణ్యా ఆవసోపాష్టేయం క్రిమిన్ అవస్తవం యద్భరం క్రిమిం వచసాయం భయామసి ఏ క్రిమయ పర్వదేషు వనేష్ోషధేషు పశుస్వంత ఏ అస్మాకం తన్వమావిషు సర్వం తంధం మేదనేమ క్రిమీణా ఉద్యన్నాదిత్యక్రిమీన్ హంతు నిమ్రోజం హంతు రశ్మిభిః ఏ అంతఃక్రిమ యోగవే విశ్వరూపం చతురక్షం క్రిమిం సారంగవద్యూనం శృణామ్యస్య వృష్టిరమిదృష్టామిగచ్చిరాః అత్రివద్దక్రిమయోహన్యగణ్వరవజ్రమదగ్నివద్ అగస్త్యస్య బ్రహ్మణా సంపీరష్మ్యహం క్రిమీన్ హతో రాజా క్రిమీణాముతేషాం స్థపతిర్హతః హతో హతమాతా క్రిమిర్హత భ్రాతా హతస్వాతా హతాసోస్య వేషసో హతాః పరివేషసః అథో యే క్షుల్లకాలీవ సర్వే తే క్రిమయో హతాః ప్రదేశృణామి సింజేయాభ్యాహం విదురాజసి భిలగ్నీతే కుశుంభం యస్తే విషధానాః అక్షేభ్యాం తేనాసీకాభ్యాం కర్ణాభ్యాం చుబుకాదసి యక్ష్మం శీర్షణ్యం మస్తిష్కాద్యక్వాయ అవిలేషామితే ग्रीवाभ्यस्तौष्ण्याभ्यर्थीकराभ्योऽनोक्यादेयस्मम् दोषण्या आमंसाभ्याम् बाहुभ्याम् विवृहाविते हृदयरात्रे परिक्लोम् नोरीक्ष्णात् पार्श्वाभ्याम् यक्ष्मम् मतस्नाभ्याम् गृहीन्धो यक्ष्णस्ते विवृहामसि आन्त्रेभ्यस्ते गुदाभ्यो वरिष्ठो रुदराधि यक्ष्मम् कुक्षिभ्याम् प्लासेर्नाभ्याविवृहामिते ऊरुभ्याम् ते अष्टीवद्भ्याम् पाष्णिभ्याम् प्रपदाभ्याम् यक्ष्मम् वसत्याम् षोडिभ्याम् भासदम्भम् सो विवृहामिते अस्तिभ्यस्ते मज्जभ्यस्नावभ्यो धमनिभ्यः यक्ष्मम् पाणिभ्यामङ्गुलिभ्यो रघेभ्यो विवृहामिते
अङ्गे अङ्गे लोम्नि लोम्नि यस्ते पर्वणि पर्वणि यक्ष्मम् वदस्यन्ते वयम् कश्यपश्च विश्वम् विवृहामसि यजीषे पशुपतिः पशूनाम् चतुष्पदामुतयो द्विपदाः निष्क्रीतस्तयज्ञम् भागमेतु राजस्पोटा यजमानम् ददन्ताम् प्रमुञ्चन्तो भुवनस्य रेतो गातुम् भक्तयजमानाय देवाः उपाकृतम् शतमानम् यदस्थाः क्लिजम् देवानामप्येतुमाथाः ये भद्राः नमनुदीभ्याः न अन्वैक्षम् दमनसा चक्षुषा च अग्न्यष्टानग्रे प्रमोमोक्लुदेवो विश्वकर्मा प्रजनासंनराणः ये ग्राम्या पशवो विश्वरूपाविरूपाः सन्तो बहुधैकरूपाः वायुष्टानग्रे प्रमोमोक्लुदेवः प्रजनासंनराणः प्रजानन्तः प्रतिगृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् दिवम् गच्छ प्रतिष्ठा शरीरैः स्वर्गय्याहि पतिभिर्देव जानैः ये भक्षयन्तो नवदोऽन्यानुसृजानग्नजो अन्वतप्यन्तधिष्ण्याः या तेषामवजातुरिष्टिस्तृष्टिन्नस्ताङ्कृणविश्वकर्मा यज्ञपतिमिषयेन साहुर्निर्भक्तम् व्रजानुतप्यमानम् मथव्यान् स्तोकानपराजान् प्रदादसन् अष्टेभिस्तृजतु विश्वकर्मा अदान्यान् सोमान् मन्यमानो यज्ञस्य विद्वान् सामजेन धीराः यजेनश्च क्रवान् बद्धरेषतम् विश्वकर्मन् प्रमुञ्च स्वस्तये घोरार्षजो नमो अस्तेभ्यश्चक्षुर्यदेषाम् मनसश्च सत्यम् बृहस्पतये महिषद्युमन्नमो विश्वकर्मन् नमस्ते पास्मान् यज्ञस्य चक्षुप्रभृतिर्मुखम् च वाचा श्रोत्रेण मनसा जुहोमि इमै यज्ञम् विततम् विश्वकर्मणा देवायन्तु सुमनस्य मानाः पारोः अग्ने सुमतिम् सम्भलोकमे दिमाम् कुमारीम् सह नो भगेन दुष्टावरेषु समानेषु वल्गुरोषम् पत्या सौभागमस्त्वस्यै सोमजुष्टम् ब्रह्मजुष्टमर्यम् नासम्भृतम् भगम् धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् इयमग्नेनारीपतिम् विदेष्टतो मोहिराजा सुभगान् कृणोति सुभाना पुत्रान्महीभवादिकर्तापतिम् सुभगा विराजतु यथा खरो मरवंश्चारुरेष प्रियो मृगाणाम् सुषदा बभूव देवभगस्य जुष्टे रमस्तु नारी सम्प्रीयापत्या वीराधयन्ति भगस्य नाममारोह पूर्णमनोपदस्पति अयोः वप्रदाहारयोभरप्रतिनाम्याः आक्रन्दयधनपदे भरमानसङ्कृणो सर्वम् प्रदक्षिणम् कृणयोहरप्रतिनाम्याः इदम् हिरण्यम् गुल्गुल्वयमोक्षोऽथो भगः एते पतिभ्यस्तामप्रतिकामाजवेत्रे आयेन यतु सविता न यतु पदर्यप्रतिकाम्याः ತಮಸ್ತೇಷಧೆ
ಇತಿ ದ್ವಿತೀಯಂ ಕಾಂಡಂ ಸಮಾಪ್ತಂ ಓಂ ಅಥ ತೃತೀಯಂ ಕಾಂಡಂ
ಅಗ್ನಿರ್ನಶ್ಚತ್ರೋನ್ ಪ್ರತ್ಯೇತು ವಿದ್ವಾನ್ ಪ್ರತಿದಹನ್ ಅಭಿಜಸ್ತಿ ಮರಾದಿಂ ಸಸೇನಾಂ ಮೋಹಯತು ಪರೇಷಾಂ ನಿರಹಸ್ತಾಂ ಸಕಲವಜ್ಜಾತವೇದಾಃ ಯೂಯಮುಗ್ರಾಮರುದೀರ್ಷೇಸ್ತಾಭಿಪ್ರೇತಮೃಣದಶಹಸ್ರಂ ಅಮೀಮೃಣಂ ವಸವೋನಾಧಿತಾರಿಮೆ ಅಗ್ನಿರ್ಯೇಷಾಂ ದೋಷ ಪ್ರತ್ಯೇತು ವಿದ್ವಾನ್ ಅಮಿತ್ರಸೇನಾಂ ಮಾಘವನ್ನಸ್ಮಾನ್ ಶತ್ರುಯಜೀಮಹಿ ಯುಗಂತಾರಿಂದ್ರವೃತ್ರಹನ್ನಗ್ನಿಶ್ಚ ದಹತಂ ಪ್ರತಿ ಪ್ರಸೂದಇಂದ್ರ ಪ್ರವತಾರಿಭ್ಯಾಂ ಪ್ರತೇ ವಜ್ರ ಪ್ರಭೃಣನ್ನೇ ದುಶತ್ರೂನ್ ಜಹಿ ಪ್ರತೀವೋ ಅನೂಜರ ಪರಾಜೋ ವಿಶ್ವಕ್ ಸತ್ಯಂ ಕೃಣಿ ನಿತ್ತಮೇಷಾಂ ಇಂದ್ರಸೇನಾಂ ಮೋಹಯ ಮಿತ್ರಾಣಾಂ ಅನ್ಯೇರ್ವಾದಸ್ಯದ್ರಾಜ್ಯಾತಾಂ ವಿಶೂಚೋ ವಿನಾಶಯ ಇಂದ್ರಸೇನಾಂ ಮೋಹಯತು ಮರುತೋ ಘನ್ವೋಜಸಾ ಚಕ್ಷುಂಶಗ್ನಿನಾ ದತ್ತಾಂ ಪುನರೇತು ಪರಾಜಿತಾ ಅಗ್ನಿರ್ನೋ ದೂತ ಪ್ರತ್ಯೇತು ವಿದ್ವಾನ್ ಪ್ರತಿದಹನ್ ಅಭಿಜತ್ತಿ ಪರಾದಿಂ ಸ ಚಿತ್ತಾನಿ ಮೋಹಯತು ಪರೇಷಾಂ ನಿರ್ಹಸ್ತಾಂ ಸಕಲವಜ್ಜಾತವೇದಾಃ ಅಯಮಗ್ನಿರಮೋಮುಹತ್ಯಾದಿ ಚಿತ್ತಾನಿ ಮೋಹೃದಿ ವಿಮೋಹದತ್ತೋಕ ಸಪ್ರಮೋಹದಮತು ಸರ್ವತಃ ಇಂದ್ರ ಚಿತ್ತಾನಿ ಮೋಹಯನ್ ನರ್ವಾಹೂತ್ಯಾಚರ ಅಗ್ನೇರ್ವಾತಸ್ತದ್ರಾಜ್ಯಾತಾಂ ವಿಶೋಚೋ ವಿನಾಶಯ ವ್ಯಾಗೂತಯಜೇಷಾಮಿತಾಥೋ ಚಿತ್ತಾನಿ ಮುಹ್ಯತ ಅಥೋರಿತದ್ದೇಷಾಂ ಹೃದಿತದೇಷಾಂ ಪರಿಣಿರ್ಜಹಿ ಅನೀಶಾಂ ಚಿತ್ತಾನಿ ಪ್ರತಿ ಮೋಹಯನ್ ದೀರ್ಘಾಣಾಂಗಾಂಗತ್ವೇ ಪರೇಹಿ ಅಭಿಪ್ರೇಹಿರ್ದಹರ್ತಲೋಕೈರ್ಗ್ರಾಹ್ಯ ಮಿತ್ರಾಂ ಸ್ತಮದಾವಿದ್ಯಾನ ಅಸೌಯಾದೇನಾ ಮರುತಃ ಪರೇಷಾಮಸ್ಮಾನೇತ್ಯಭ್ಯೋಜಸಾ ಸ್ಪರ್ಧಮಾನಾಂ ತಾಂ ವಿದ್ಯರತಮಸಾ ಬಹುವ್ರತೇಷಾಮನ್ಯೋ ಅನ್ಯನ್ನ ಜಾನಾತ್ ಅಜಿತ್ಕಲತ್ವಯವಾಯಿಗಭೂಮದಗ್ನೇ ವ್ಯಜಸ್ಪರೋದಸೀ ಮುರುಚೀ ಯುಂಜನ್ ಋತ್ವಾ ಮರುತೋ ವಿಶ್ವವೇದಸ ಆಮುನ್ನಜಯಮಾಸಾರಾತಹೂಯಂ ದೂರೇ ಚಿತ್ಸಂತ ಮರುಷಾದೈಂದ್ರಮಾಚ್ಚಾಹವಯಂತು ಸಖ್ಯಾಯ ವಿಪ್ರಂ ಯದ್ಗಾಯತ್ರೀಂ ಬೃಹದೀ ಮರ್ಕಮಸ್ಮೈ ರೌತ್ರಾಮಣ್ಯಾಧೃಷಂತ ದೇವಾಃ ಅಗ್ರಸ್ತ್ವಾ ರಾಜಾ ವರುಣೋಹ್ವಯತು ಸೋಮಸ್ತ್ವಾಹ್ವಯತು ಪರ್ವತೇಭ್ಯಃ ಇಂದ್ರಸ್ವಾಹ್ವಯತು ವಿಭ್ಯಾಭ್ಯಶೇನೋ ಭೂತ್ವಾ ವಿಷಾಪದೇಮಾಃ ಶೇನೋ ಹವ್ಯನ್ನಯತ್ವಾ ಪರಸ್ಮಾದನ್ಯಕ್ಷೇತ್ರೇ ಅಪರುದ್ಧಂ ಚರಂತಂ ಅಶ್ವಿನಾ ಪಂಥಾಂ ಕೃಣುತಾಂ ಸುಗಂತ ಇಮಂ ಸಜಾತಾ ಅಭಿಸಂವೇಷಧ್ವಂ ಹಯಂತುತ್ವಾ ಪ್ರತಿಜನಾ ಪ್ರತಿಮಿತ್ರಾ ವೃಷದ ಇಂದ್ರಾಂಗೇ ವಿಶ್ವೇ ದೇವಾಸ್ತೆ ವಿಶಿಕ್ಷೇಮ ಮದೀಧರನ್ ಯಸ್ತೇಹವಂ ವಿವದತ್ವಜಾತೋ ನಶ್ಚೇ ನಿಶ್ಚಾಹ ಅವಾಹಂ ಚ ಮಿಂದ್ರತಂ ಕೃತ್ವಾ ಧೇವ ಮಿಹಾವ ಗಮರ ಆತ್ವಾ ಗಂಗಾಷ್ಟಂ ಸಹವರ್ಚ ಸೋದಿ ಹಿಪ್ರಾಂ ಶಿಶಾಂ ಪರಿತೇಕಾಷ್ಟಂ ವಿರಾಜ ಸರ್ವಾಸ್ತ್ವಾ ರಾಜಂ ಪ್ರತಿಜೋ ವಯಂ ತೋ ಪದದ್ಯೋ ನಮಸ್ಯೋ ಭವೇಹ ತಾಂ ವಿಶೋ ವೃಣತಾಂ ರಾಜ್ಯಾ ಯತ್ವಾ ವಿಮಾ ಪ್ರತಿಹರ್ತಂ ಚ ದೇವೇಃ ವಷ್ಮನ್ ರಾಷ್ಟ್ರಸ್ಯ ಕವಿಶ್ರಯ ಸ್ವಸೋ ನೌಗ್ರೋ ವಿಭಜಾವಸೂನಿ ಅಕ್ಷತ್ವಾಯಂತು ಹವಿನಸ್ತ ಜಾತಾ ಅಗ್ನಿರ್ದೋತೋ ಜಿನಸ್ಸಂಚರಾದೈ ಯಾತ್ರ ಸುಮನಸೋಭವಂತು ಬಹುಂ ಪರಿಮೃದೇ ಪಶ್ಯಾಸ ಉಗ್ರ ಅಶ್ವಿನಾತ್ವಾಗ್ರೇ ಮಿತ್ರಾವರುಣೋ ಭಾವಿಷ್ಣೇ ದೇವಾ ಮರುತಸ್ವಾಹ್ವಯಂತು ಅಧಾಮನೋ ವಸುದೇಜಃ ಜಗ್ನುಷ್ಪತೋ ನ ಉಗ್ರೋ ವಿಭಜಾವಸೂನಿ ಆ ಪ್ರದ್ರವರಮಸ್ಯಾ ಪರಾವತ ಶಿವೇ ದೇ ದ್ಯಾವಾ ಪೃಥಿವೀ ಉಭೇಸ್ತಾ तदयम् राजा वरुणस्तथा हतस्त्वायमः वत्स उपेदमेहि इन्द्रेन्द्रमनुष्याः परे हृदम्यः स्थावरुणैः संविधानः सत्त्वायमः वत्से तदस्थे स देवान्यक्षत्सौ कल्पयाद्विषाः पत्याः रेवतेर्बहुधा विरूपाः सर्वाः सङ्गत्य वरीरस्ते अक्रन् ताः सर्वाः संविधानाः क्वायन्तु दशमी उग्रः सुमनाः वशेः आयमागन् पर्णमणिर्बलीबलेरणम् सपत्नान् ओजो देवानाम् पयवोषधीनाम् मच्चसामाजन्मत्तप्रजावन् मयिक्षत्रम् पर्णमणे मयिधारयताद्रयम् अहम् राष्ट्रस्याभिवर्गे निजोयासमुत्तमः यन्ने दसर्वनस्पतौ गुह्यम् देवा प्रियम् मणिम् तमस्मभ्यम् दायुषा देवा ददतु भर्त मे सोमस्य पर्णस्तः उग्रमागन्निन्द्रेण दत्तो वरुणेन शिष्टः तम् प्रियजातम् बहुरोचमानो दीर्घायुत्वाय शतसाहारदार आमाः रुक्षत्वर्णमणिर्मह्याः रिष्टदाहादरे यथाहमुत्तरोदान्यर्यम् न उत संविदाः ये देवाः नोरथकाराः कर्मा राजेव नेषिणाः उपस्तेऽन्वर्णमह्यम् त्वम् सर्वाङ्गन्वभितोचनाः ये राजाः नो राजकृतः सूताग्राहामण्यश्च ये उपस्तेऽन्वर्णमह्यम् त्वम् सर्वाङ्गन्वभितो जनाः पर्णोदनो बाणस्तजो निर्वीरो वीरेण मयाः संवत्सरस्य तेजसा तेन वृद्धामि नामणे पुमान् पुंसपरिजातोष्पच्छक्रादिराजति सहम् शत्रोन्मामकान्यानहम् देष्विजयचराम् तानश्वत्थनिश्रेणेः शत्रोन्मयि बाधदोधरः इन्द्रेण वृत्रघ्नामेदीमित्रेण वरुणेन च यथाश्वत्थनिरभनोऽन्तर्महत्यर्णवे एवातान् सर्वान् निर्भन्ति जानहम् देष्मिजेतराम् यस्तः मानश्चरदिगावहाननीवर्णवः तेनाश्वत्थत्वया वयम् सपत्नाम् सहिणीमहि शिनान्निर्गतिर्मत्योः पाशैरवाक्यैः अश्वत्थशत्रोन्मामकान्यानहम् देष्मिजेतराम् यथाश्वत्थवानस्पत्यानारोहम् कृणुषेधरान् एव मे शत्रोर्मोर्धानम् विश्वग्भिन्धिसहस्रजा ते धराम् च प्रप्लवन्तान् छिन्नानौरेवबन्धनात् न मे बाधप्राणुत्तानाम् पुनरस्ति निवर्तनम् प्रैणान्नुदे मनसा प्रचित्तेनोत ब्रह्मणा प्रेणाम् वृक्षस्य शाकानाश्वत्थस्य नुदामहे हरिणस्य लघुश्च दोधीशीर्णीभेषजम् सक्षे त्रिजम् विषाणजा विषुचीनमनीन सत् अनुत्वा हरिणो विषाः बद्धिश्चतुर्भिरक्रमीर् विषाणे विश्च गुष्पितम् यदस्य क्षेत्रिजम् हृदि अतो यद भरोचते चतुष्पक्षमिवच्छति तेना ते सर्वम् क्षेत्रिजमङ्गेभ्यो नाशयामसि अमूये दिवि सुभगे विचृतौ नाम तारके विक्षेत्रिजस्य मुञ्चतामधमम् वासमुत्तमम् आपयिद्वाभेषजीरापो अमीवदानीः आपो विश्वस्य भेषजी स्वास्त्वामुञ्चन्तु क्षेत्रियात् यथा हृदे क्रियमाणाया क्षेत्रियम् दाव्यानशे वेदाहन्तस्य भेषजम् क्षेत्रियम् नादयामित्वत् अपासे नक्षत्राणामवभास उषदाः भूता अपास्मत्सर्वम् दुर्भूतमपक्षेत्रियमुच्छतु आयातु मित्रऋतुभिः कल्पमानस्तम् वेषयम् पृथिवीमुष्ट्याभिः अथास्मभ्यम् वरुणो वायुरग्निर्बृहद्राष्ट्रम् संवेश्यम् दधातु धाता राजस्त विते दञ्जूषन्तामिन्द्रस्तष्टा प्रतिहर्यन्तु मे वचाः भुवे देवीमदीतिम् शूरपुत्राम् सजाताराम् मध्यमेष्ठायथाधारि कुबे सोमम् सवितारम् नमोभिर्विश्वानादित्या अहमुत्तरत्वे अयमग्निर्दीदायद्दीर्घमेव स जाते नित्वा प्रतिप्रवद्धि इहेद साधनपरोगपाथेर्यो गोपाः पुष्टपदर्वाजत् अस्मैकामाजामकामिनीर्विश्वेवो देवावोपसंयन्तु सम्भोमनाम् शिक्ष्मणामानोदीर्णमावदे अमीरेमिम्रतास्तनतान्वस्तम् न मयामसि अहम् गर्भ्रामि मनसा मनांसि मम चित्तमनो चित्तभिरेता मम वशे शुदयानि वक्रणामि मायातमनो वर्त्मानयेता कश्यपस्य विषभस्य द्यौष्पिता पृथिवी माता यथाभिचक्रदेवास्तदापकृणुता पुनः अश्लेष्माणो धारयन् तथा तन्मनोराकृतम् कृणामि मध्यविष्कन्धम् मुष्कावरुहोगवाहाविव विषङ्गे सोत्रे कृतम् तदा बध्नन्ति वेदताः श्रवस्तुम् सुष्मम् कामवम् वद्रिम् कृण्वन्तु बन्धुराः एनाश्रवस्य वश्चरथदेवायी वासुरमायाः शुनाम् कविरीवदूषणो बन्धुराका भवस्य च दुष्टे हित्वा भत्स्यामि दूषयिष्यामि गाभाम् उदासवो रथा इव शपथे विस्तरिष्यथ एकशतम् विष्कन्धानि विक्षीता पृथिवीमनो तेषाम् त्वामग्र उच्च हर्मणिम् विष्कन्धय दूषणम् प्रथमाहव्यो वा सदा धेतुरभवज्जने सारपयस्पतीरुहामुत्तरामुत्तराम् समाम् याम् देवाः प्रतिनन्दन्ति रात्रिम् धेनुमोपायने संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गले संवत्सरस्य प्रतिमाम् याम् त्वारात्युपास्महे स्वारायुष्मदीम् प्रजाम् रायस्पोषेण संसृज इयमेव सारा प्रथमाम् यौच्छदास्मितराजुजनति प्रविष्टा महान्तो अस्याम् महिमानो अन्तर्वधोर्जे गायनवरगज्जनित्री वानस्पत्या ग्रामाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् एकाष्टकेतु प्रजलः सुवीराजम् स्याहमपतजोरवीणाम् इडायास्पदम् कृतवत्सरीर्वम् जातवेदः प्रतिहव्याग्रीभाय ये ग्राम्याः पशवो विश्वरूपास्तेषाम् दप्ताराम् महिरन्तीरस्तु आमाः पुष्टे चपोषे रात्रिदेवानाम् सुमहतौ स्याम पूर्णादर्भे परापसूर्णा पुनरापद सर्वान् यज्ञान् सम्भुञ्जति गणोर्जन्नाभर आयमगन् संवत्सरः पतिरेकाष्टके तव सा रायुष्मतीम् प्रजाम् राजस्पोषे रसम् सृज ऋतोऽन्यजसुमतीरार्तवानुधायनान् समाः संवत्सराम् मासान् भूतस्य पतलेयजे ऋतुभ्यष्ट्वार्तवेभ्यो माध्यस्तम् वत्सरेभ्यः धात्रे धात्रे समृधे भूतस्य पतलेयजे इडजाजुर्वतो वयम् देवान् घृतवदायजे गृहानुभ्यतो वयम् संविक्षेमोपकोपतः एकाष्टका तपसा तप्यमानाजानगर्भम् महिमानमिन्द्रम् तेन देवाव्यसहन्तशत्रून् हन्तादस्यो नाम भवक्षकीपतिः इन्द्रपुत्रे सोमपुत्रे दुहितादिप्रजापतेः कामानस्माकम् पूरयः प्रतिगृह्णाहि नो हरिः